ॐ राहवे नमः, सर्पाय नमः, कालाय नमः। राहुध्यानम्। अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्, सिंहिका गर्भसम्भूतं तं राहुं प्रणमाम्यहम्। वेदोक्त राहु मंत्रम्।
कयानश्चित्र आभवदूती सदा वृधः सखा, कया सचिष्ठया वृता आयङ्गौ कृष्णिरक्रमी दशनन्मातरम् पुनः पितरम् च प्रयन्त्सुवः। यत्ते देवी निररितिरावबन्धदामग्रीवा स्वविचर्त्यम्। इदम् ते तद्विश्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः। ओम् अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः। ओम् कयानश्चित्र आभवदूती सदा वृधः सखा, कया सचिष्ठया वृता आयङ्गौ कृष्णिरक्रमी दशनन्मातरम् पुनः पितरम् च प्रयन्त्सुवः। यत्ते देवी निररितिरावबन्धदामग्रीवा स्वविचर्त्यम्। इदम् ते तद्विश्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः। ओम् अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः। ओम् कयानश्चित्र आभवदूती सदा वृधः सखा, कया सचिष्ठया वृता आयङ्गौ कृष्णिरक्रमी दशनन्मातरम् पुनः पितरम् च प्रयन्त्सुवः। यत्ते देवी निररितिरावबन्धदामग्रीवा स्वविचर्त्यम्। इदम् ते तद्विश्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः। ओम् अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः। ओम् कयानश्चित्र आभवदूती सदा वृधः सखा, कया सचिष्ठया वृता आयङ्गौ कृष्णिरक्रमी दशनन्मातरम् पुनः पितरम् च प्रयन्त्सुवः। यत्ते देवी निररितिरावबन्धदामग्रीवा स्वविचर्त्यम्। इदम् ते तद्विश्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः। ओम् अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः। ओम् कयानश्चित्र आभवदूती सदा वृधः सखा, कया सचिष्ठया वृता आयङ्गौ कृष्णिरक्रमी दशनन्मातरम् पुनः पितरम् च प्रयन्त्सुवः। यत्ते देवी निररितिरावबन्धदामग्रीवा स्वविचर्त्यम्। इदम् ते तद्विश्याम्यायुषो न मध्यादथा जीवः पितुमद्धि प्रमुक्तः। ओम् अधिदेवता प्रत्यधिदेवता सहिताय भगवते राहवे नमः।
राहु कवचम्। प्रणमामि सदा राहुं सर्पाकारं किरीटिनम्, सैंहिकेयं करालास्यं भक्तानामभयप्रदम्। राहुं चतुर्भुजं चर्मशूलखड्गवराङ्कितम् कृष्णमाल्याम्बरधरं कृष्णगन्धानुलेपनम् गोमेधकविभूषं च विचित्रमकुटान्वितम् कृष्णसिंह्यरथं मेरुं यान्तं चैवाप्रदक्षिणम् नीलाम्बरशिरः पातु ललाटं लोकवन्दितः चक्षुषी पातु मे राहुः श्रोत्रमर्धशरीरवान् नासिके मे करालास्य शूलपाणिर्मुखं मम जिह्वां मे सिंहिकासूनः कण्ठं मे कष्टनाशनः भुजङ्गेशो भुजौ पातु नीलमाल्यः करौ मम पातु वक्षस्तमो मूर्तिः पातु नाभिं विधुन्तुदः कटिं मे विकटः पातु चोरू मे सुरपूजितः स्वर्भानुर्जानुनी पातु जङ्घे मे पातु चाप्यगुः गुल्फौ ग्रहाधिपः पातु नीलचन्दनभूषितः पादौ नीलाम्बरः पातु सर्वाङ्गं सिंहिकासुतः राहोरिदं कवचमीप्सितवस्तुदं यः भक्त्या पठेदनुदिनं नियतः शुचिः सन् प्राप्नोति कीर्तिमतुलाञ्च श्रियः समृद्धिम् आरोग्यमाशु विजयाद्यसुरप्रसादात् राहुस्तोत्रम् प्रणमामि सदा राहुं सर्पाकारं किरीटिनं सैंहिकेयं करालास्यं भक्तानामभयप्रदं राहुं चतुर्भुजं चर्मशूलखड्गवराङ्कितं कृष्णमाल्याम्बरधरं कृष्णगन्धानुलेपनं गोमेधकविभूषं च विचित्रमकुटान्वितम् कृष्णसिंह्यरथं मेरुं यान्तं चैवाप्रदक्षिणम् शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् सर्वरोगप्रशमनं विषभीतिहरं परम् सर्वसम्पत्करं चैव गुह्यं स्तोत्रमनुत्तमम् आदरेण प्रवक्ष्यामि सावधाना भवन्तु च राहुः सूर्यरिपुश्चैव विषज्वालोसिताननः सुधांशु वैरीश्यामात्मा विष्णुचक्रोनितो बली भुजङ्गेशस्तीक्ष्णदंष्ट्रः क्रूरकर्माग्रहाधिपः द्वादशैतानि नामानि नित्यं भक्तियुतः पठेत् जप्त्वा तु प्रतिमां चैव सीसजां माशसुस्थिताम् नीलगन्धाक्षतैः पुष्पैः भक्त्या सम्पूज्य यत्नतः वह्निमण्डलमानीय दूर्वाण्णाज्याहुतिः क्रमात् तन्मन्त्रेणैव जुहुयात् यावदष्टोत्तरं शतम् हुत्वैवं श्रद्धया राहुं प्रार्थयेद्ग्रहनायकम् राहो करालवदन रविचन्द्रभयङ्कर तमो रूप नमस्तुभ्यं प्रसादं कुरु सर्वदा सम्प्रार्थ्यैवं ग्रहेशं तं स्तोत्रं यः प्रयतः पठेत् राहुः प्रीतमनास्तस्य कष्टस्थानगतोऽपि वा दिशान्न जनितां भीतिं न करोति कदाचन सर्वान् कामानवाप्नोति नष्टराज्यमुपैति च राहुप्रीतिकरेणाथस्तोत्रेणानेन सर्वदा स्तुत्वा ग्रहेशं स्वर्भानुं सर्वान् कामानवाप्नुयात् एवं पठेदनुदिनं स्तवराजमेनं राहोः प्रसन्नहृदयो विजितेन्द्रियो यः आरोग्यमायुषमवाप्य मनोरथार्थान् ये जीयते च विषमाश्च गृहाः प्रसन्नाः स्कान्द राहुस्तोत्रम् दानवमन्त्री च सिंहिकाचित्तनन्दनः अर्थकायः सदा क्रोधी चन्द्रादित्यविमर्दनः रौद्रो रुद्रप्रियो दैत्यस्वर्भानुर्भानुभीतिदः ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः विधुन्तुदः सैंहिकेयो घोररूपो महाबलः ग्रहपीडाकरोदं स्त्रीरक्तनेत्रो महोदरः पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नरः यः पठेन्महती पीडा तस्य नश्यति केवलम् आरोग्यम् पुत्रमतुलाम् श्रियम् धान्यम् पशूंस्तथा ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् सततम् पठते यस्तु जीवेद्वर्षशतम् नरः
राहु अष्टोत्तरशतनामस्तोत्रम्
शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः सुरशत्रुस्तमाश्चैव फणिर्गार्ग्यायनस्तथा सुरारिर्नीलजीमूतसङ्काशश्च चतुर्भुजः खड्गखेटकधारी च वरदायकहस्तकः शूलायुधो मेघवर्णो कृष्णध्वजपताकवान् दक्षिणाशामुखरथस्तीक्ष्णदंष्ट्राकरालकः शूर्पाकारासनस्थश्च गोमेधाभरणप्रियः माशप्रियः काश्यपर्षिनन्दनो भुजकेश्वरः उल्कापातयिता शूली निधिपः कृष्णसर्पराट् विषज्ज्वालावृतास्योर्धशरीरश्चात्रवप्रदः रवीन्दुभीकरच्छायास्वरूपी कठिनाङ्गकः द्विषच्छक्रच्छेदकोथकरालास्यो भयङ्करः क्रूरकर्मातमो रूपश्यामात्मा नीललोहितः किरीटिनीलवसनः शनिसामन्तवर्त्मगः चण्डालवर्णोथाश्वर्क्षभवो मेषभवस्तथा शनिवत्फलदः शूरोपसव्यगतिरेव च उपरागकरः सोमः सूर्यच्छविविमर्दकः नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः कबन्धमात्रदेहश्च यातुधानकुलोद्भवः गोविन्दवरपात्रश्च देवजातिप्रविष्टकः क्रूरो घोरशनेर्मित्रम् शुक्रमित्रमगोचरः माने गङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः सगृहेऽन्यस्य बलहृच्चतुर्थे मातृनाशकः चन्द्रयुक्ते तु चण्डालजन्मसूचक एव च सिंह्यजन्मा राज्यदाता महाकायस्तथैव च जन्मकर्ता विधुरिपुर्मत्तकाज्ञानदश्च सः जन्मकन्या राज्यदाता जन्महानिद एव च नवमे पितृनाशश्च पञ्चमे शोकदायकः द्यूने कलत्रहन्ता च सप्तमे कलहप्रदः षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः नवमे पापदाता च दशमे शोकदायकः आदौ यशःप्रदाता च ह्यन्ते वैरप्रदायकः कालात्मा गोचरचरो धने चास्य ककुत्प्रदः पञ्चमेऽधिजना शृङ्गरस्वर्भानुर्बली तथा महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा पाटीरपूरणश्चाथ पैथीनसकुलोद्भवः दीर्घकृष्णो तनुर्विष्णुर्नेत्रारिर्देवदानवौ भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः एतद्राहुग्रहस्योक्तम् नाम्नामष्टोत्तरम् शतम् श्रद्धया यो जपेन्नित्यम् उच्यते सर्वसङ्कटात् सर्वसम्पत्करम् चैव सर्वाभीष्टप्रदायकम्
स्मराम्यहं सदा राहुं स्मराम्यहं सदा राहुं सूर्यचन्द्रवीक्षं विकृतदेहं स्मराम्यहं सदा राहुं सूर्यचन्द्रवीक्षं विकृतदेहं स्मराम्यहं सदा राहुं सुखकरं शूलायुधधरकरं शूर्पासन सुखकरं शूलायुधधरकरं स्मराम्यहं सदा राहुं सूर्यचन्द्र वीक्षं विकृतदेहं स्मराम्यहं सदा राहुं वस्त्रं गोमेधकाभरणं शनिशुक्रमित्रगुरुगुहसन्तोषकरणं चर्मादिनीलवस्त्रं गोमेधकाभरणं शनिशुक्रमित्रगुरुगुहसन्तोषकरणं स्मराम्यहं सदा राहुं सूर्यचन्द्र वीक्षं विकृतदेहं स्मराम्यहं सदा राहुं
राहु गायत्री
विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ॐ नखध्वजाय 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 विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ॐ నఖధ్వజాయ విద్మహే పద్మహస్తాయ ధీమహి తన్నో రాహు ప్రచోదయాత్. ఓం నఖధ్వజాయ విద్మహే పద్మహస్తాయ ధీమహి తన్నో రాహు ప్రచోదయాత్.
రాహు మంగళం.
రాహుర్బర్బరదేశపో నిరృతౌ కృష్ణాంగశూర్పాసనః యామ్యాశాభిముఖశ్చ చందరవిరుత్పైఠీ నసిః క్రౌర్యవాన్. షట్రిస్తః శుభకృత్కరాళవదనః ప్రీతశ్చ దూర్వాహుతౌ దుర్గాపూజనతః ప్రసన్నహృదయః కుర్యాత్ సదా మంగళం.